वरलम् सरलानलम् पुरस्ता जलधेरुद्विजगालकालकूटौ अमरस्तु चिवानमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्तौ विमतत्सु सुरासुरेषु जात सुरभिस्तामृषिषु ज्ञधास्त्रिधामल् पयरत्नमभूदते भरत्नौ द्युतरुश्चाप्सरसः सुरेषु तानि जगदीश भवत्परः तदानि कमनीया कमला बभूव देवी अमलामवलोक्ययाम् विलोलः सकलोऽपि स्पृहयाम् बभूव लोकः त्वयि दत्त हृदे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकाम्यतारित् सकलोपहृताभिषेचनीयै विषयस्तासु दिगीर्भिरव्यशिज अभिषेक जलानुपाति मुग्धस्त्वदपाङ्गैरवभूषिताङ्गवल्लीम् मणिकुण्डल पीत चेलहार प्रमुखैस्ताभमरादयोर्वभूष वरणस्रजमात बृङ्गनादः ददती सा कुचकुम्भ मन्दयाना पदहिञ्जित मञ्जुनूपुरा त्वाम् कलितौ रील विलासमास साद गिरिशद्दुहिणादि सर्वदेवान् गुणबाजोऽप्यविमुक्त दोष लेशान् अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला पुरसा तरसा ममानिथैनाम् भुवनानाम् जननी अनन्यभावाम् त्वदुरो विलसत्तदीक्षण श्रीपरिवृष्ट्या परिपुष्टमास विस्मो अतिमोहन विभ्रमा तदानीम् मदयन्ति खलु वारुणी निरागात् तमसः पदवी मदास्त्वमेन अतिसम्माननय महासुरेभ्यः तरुणामुद सुन्दरस्तदा त्वहु ननु दन्नन्तरिरुत्थितो मुराशेः अमृतौ कलशे वसन्तराभ्याम् अखिलार्तिम् परमारुतालयेश